ప్రజాపతిగుం భవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పత ఆన శృణ్వన్నోతిభిః సీద సాదనం ప్రణో దేవీ సరస్వతీ వాజేభిర్వాజినీవతీ ధీనామవిత్రయవతో గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం. ఓం నమో భగవతే రుద్రాయ. ఓం నమస్తే రుద్రమణ్యవ ఉతోత ఇషవే నమః. నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః. యాత ఇషు శివతమా శివం బభూవతే ధనుః. శివాశరవ్యాయాతవతయానో రుద్రమృడయా. యాతే రుద్ర శివాతనోరఘోరా పాపకాశినీ తయానస్తను వాశంతమయా గిరిశంతాభిచాకశీ. యామి శృంగిరిశంతహస్తే బిభర్ష్యస్తవే శివాం గిరిత్రతాం కురు మాహి గుంసి పురుషం జగత్. శివేన వచసా త్వా గిరిశాచ్ఛావదామసి యథా నః సర్వమిజ్జగదయక్ష్మగుంసుమనా అసత్. అథ్యవోచదది వక్తా ప్రథమో దైవ్యోభిషక్. అహేదశ్చ సర్వా జంభయన్ సర్వాస్తయాతు ధాన్యః. అసౌయస్తామ్రో అరుణ ఉత బభ్రస్వ మంగళః. ఏ చేమాగుం రుద్రా అభితో దిక్షశ్రుతా సహస్రశో వైశాగుం హేడ ఈమహే. అసభ్యో వసత్పతి నీలగ్రీవో విలోహితః. ఉదైనం గోపా అదృశన్నదృశన్నుదహార్యః. ఉతైనం విశ్వాభూతాని సదృష్టో మృడయాతినః. నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీడుషే. అథోగే అస్య సత్వానోహం తేభ్యో కరన్నమః. ప్రముంచ ధన్వనస్త్వముభయోరాజ్ఞియోర్జ్యాం. యాశ్చ తే హస్త ఇషవః పరాతా భగవో వపా. అవతత్య ధనుస్త్వగుం సహస్రాక్షశతేషు ధే. నిషేద్యశల్యాణాముకా శివో నః సుమనా భవ. విజ్యం ధనుః కపర్దినో విశల్యో బాణవాగుంహుత. అనేశన్నస్యేషవ ఆభురస్య నిషంగతిః. యాతే హేతిర్మీఢుష్టమహస్తే బభూవతే ధనుః. తయాస్మాన్ విశ్వతస్త్వమయక్ష్మయా పరిభుజా. నమస్తే అత్వాయుధాయానాతతాయ దృష్టవే. ఉభాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే. పరితే ధన్వనో హేతిరస్మాన్ వృణక్తు విశ్వతః. అథోయ ఇషు దిస్తవారే అస్మన్నిధేహితం. నమస్తే అస్తు భగవన్విశ్వేశ్వరాయ మహాదేవాయ त्र्यम्बकाय त्रिपुरान्धकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युम् जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्मिञ्जराय त्रिषीमते पथीनां पतये नमो नमो बभ्रुषाय दिव्याधिने नानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्ये जगतां पतये नमो नमो रुद्रायाततापिने क्षेत्राणां पतये नमो नमः सूतायाहन्त्यायवनानां पतये नमो नमो रोहिताय सपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवत्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्थीनाम् पतये नमो नमः कृत्स्नवेताय धावते सत्त्वनाम् पतये नमः नमः सहवानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणेस्ते नानाम् पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः सृकाविभ्यो जिगागुंसद्भ्यो मुष्णताम् पतये नमो नमो सिमद्भ्यो नक्तम् चरद्भ्यः प्रकृन्दानाम् पतये नमो नम उष्णेषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्योधन्माविभ्यश्च वो नमो नम आतन्मानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यशयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम स्तिष्ठद्भ्यो धावभ्यश्च वो नमो नम सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आद्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुम्भतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतेभ्यश्च वो नमो नमः सेनानिभ्यश्च वो नमो नमः क्षत्रभ्यः सङ्ग्रहेतृभ्यश्च वो नमो नमः सक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नमः इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनिभ्यश्च वो नमो नमः श्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च क्षितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिबिविष्टाय च नमो मीनुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाचिराय च नमः शीघ्र्याय च शेभ्याय च नमः ऊर्व्याय च वस्वन्याय च नमः श्रोतस्याय च वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जघन्याय च बुद्ध्याय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय च वसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय च वभिन्दते च नमो वर्मिणे च वरोधिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेषु धिमते च नमः तीक्ष्णेशदे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्दाय च नमः कोप्याय च वट्याय च नमो वश्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे बधाय च दूरे बधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च गोर्ध्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आताद्याय चालाद्याय च नमः षष्ट्याय च भेन्याय च नमः सिकत्याय च प्रवाक्याय च नम इरिण्याय च प्रपत्याय च नमः किगुंशिराय च क्षयणाय च नमः कपर्तिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो गो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्ध्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय चाभिघ्नते च नमः आखिदते च प्रखिदते च नमो वक्किरिकेभ्यो देवानागम् हृदयेभ्यो नमो विक्षीरगेभ्यो नमो विचिन्मत्केभ्यो नम आनिर्हतेभ्यो नम आमीवक्केभ्यः द्रापे अन्धसस्पदे दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभेर्नारो येषाम् किञ्च नाममत् या ते रुद्र शिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुम् रुद्राय तवसे कपर्तिरे क्षयद्वीराय प्रवरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् रामे अस्मिन्ननादुरम् मृडानो रुद्रोदनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्चम् च योश्च मनुरायजे पिता तदश्यामतवरुद्रप्रणीतौ मानो महान्तमुदमानो अर्भगम् मान उक्षन्दमुदमान उक्षितम् मानो वधे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रवामितो वधेर्हविष्मन्तो नमसा विधेमते आराते गोघ्नमुत पोरुषग्ने क्षयद्वीराय सुन्नमस्मेते अस्तु रक्षाजनो अरिजदेव भ्रूयथा च नः शर्म यच्छद्विबर्हाः सुहिश्रुतम् गर्त सदम् युवानम् मृगन्न भीममुपहत्तुमुग्रम् मृडा चरिद्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो రుద్రస్య హేతు వృణక్తు పరిత్వేషస్య దుర్మతిరఘాయోః అవత్తిరామగవద్యస్తనుష్వమీకాయతనయాయ మృడయా మీడుష్టమశివతమశివోన సుమనా భవ పరమే వృక్ష ఆయుధం నిధాయ కృత్యం వసానమాచర పినాకం బిభ్రదాగహీ వికిరిత విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుంహేతయోన్యమస్మన్నివ పంతు తాః సహస్రాణి సహస్రదా బాహువోస్తవ హేతయః తాసామీశానో భగవః పరాచీనాముఖాకృతే సహస్రాణి సహస్రశోయే రుద్రాభిభూమ్యా తేషాగుంధహస్రయో జనే వదన్వాని తన్మసే అస్మిన్మహత్యర్నవేందరిక్షే భవా అధే నీలగ్రీవాశితికంఠా చర్వా అధః క్షమాచరాః నీలగ్రీవాశితికంఠాదివగుం రుద్రా ఉపశ్రితాః ఏ వృక్షేషు సస్మిల్జరా నీలగ్రీవా విలోహితాః ఏ భూతానామధిపతయో విశికాసక్కపర్తినః ఏ అన్నేషు వివిద్యంతి పాత్రేషు విపదో జనాన్ ఏ పథాం పదిరక్షయ ఐలభృదాయ వ్యుదః ఏ తీర్థాని ప్రచరంతి శృగావంతో నిషంగిణః యేతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రావితస్తిరే తేషాగుంసహస్రయో జనే వధన్వాని తన్మసే నమో రుద్రేభ్యో యే పృథివ్యాం యేందరిక్షే యే దివిగేషావన్నం వాతో వరుషమిషవస్తేభ్యో దశ ప్రాచేర్దశ దక్షిణా దశ ప్రదేచేర్దశో దేచేర్దశోర్ధ్వాస్తేభ్యో నమస్తే నో మృడయంతు తేయం ధిష్మో యశ్చ నో ద్వేష్ ోజం హే దామి త్ర్యంబకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ బంధనాన్ మృత్యోర్ముక్షేయమామృతాత్ యో రుద్రో అగ్రవ్యో అప్సూయ ఓషధీషు యో రుద్రో విశ్వ భువనాదివేశ తస్మై రుద్రాయ నమో అస్తు ఏతే సహస్రమయుతం పాచా మృత్యో మర్త్యాయ హంతవే తాన్యజ్ఞస్య మాయయా సర్వానవయజామహే మృత్యవే స్వాహా మృత్యవే స్వాహా ప్రాణానాం గ్రంథిరసిరద్రోమా విశాంతగః తేనాన్నేనాప్యాయత్వా నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహి తముష్టు హియశ్రిషుసుధన్వాయో విశ్వస్య క్షయతి భేషజస్య యక్ష్వా మహేశో మనసాయ రుద్రం నమో విర్దేవమసురందువస్య అయం మే హస్తో భగవానయం మే భగవత్తరః అయం మే విశ్వభే సజోయగు శివాభిమరుషనః ఓం శాంతి 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 ఓం అగ్నా విష్ణు సజోష देवावर्धन्तु वाङ्गिरः युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रतितिश्च मे धेतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाक् च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मे कानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जैष्ठ्यम् च म आधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मे भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे क्लृप्तम् च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे षञ्च मे मयश्च मे प्रियम् च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे क्षीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सुषा च मे सुदिनम् च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सद्भिश्च मे सपेतिश्च मे ऋषिश्च मे हृष्टिश्च मे जयेत्रम् च म औद्भिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभुच मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कूयवाश्च मे नम् च मे क्षुच्च मे विहयश्च मे यवाश्च मे माशाश्च मे तिराश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शेषम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च म आपश्च मे विरुधश्च म औषधयश्च मे कृष्टपच्यम् च मे कृष्टपच्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्रृणौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मे दाभ्यश्च मे धिपतिश्च म उपागुंशुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्धी च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतु ग्रहाश्च मेति ग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतेयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पोतभृच्च म आधवनीयश्च म आग्नेर्धम् च मे हविर्धानम् च मे गृहाश्च मे सदश्च मे पुरोणाशाश्च मे पचताश्च मे वभृतश्च मे स्वराकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृक् च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्भृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्य मे दित्यौ हि च मे पञ्चाविश्च मे पञ्चारे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहे च मे पष्टवाच्च मे पष्टौहे च मभुक्षा च मे वशा च मर्षभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च मायुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताघुश्रोत्रै यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे षाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे षाचत्वारिगुंशच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च व्यस्तियस्त्यान्त्यायनस्त्यान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडादेवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्था मदानि सगुंसि षद्विश्वे देवासु तवाच पृथिविमातर्मा माहिगुंसेर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमते देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्याम् मनुष्येभ्यस्तम् मा देव अवन्तु शोभायै पितरो नु मदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तत्सयोरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजं शन्नो अस्तु द्विपदे शरचतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्ष सहस्रपाद स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुं सर्वम् यद्भूतं यच्च भव्यम् उतामृतत्वस्येषा नः यदन्येनातिरोहति एतावानस्य महिमा अतो ज्यायागश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्वौ दैत्पुरुषः पादोस्येह भवात् पुनः ततो विश्वं व्यक्रामत् साशनानशने अभि तस्माद् विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवायज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्म शरद्भविः सप्तास्यासन् परिधयः त्रिसप्तसमिध कृताः देवायद्यज्ञम् तन्वाणाः अभद्रन् पुरुषम् पशुम् तैयज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माद्यज्ञात् सर्वभूतः संभृतम् पृषदाज्यम् पशुगुस्तागुश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वभूतः ऋषसामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चोभयादतः गावोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदधुः कथिता व्यकल्पयन् मुखम् किमस्य कौ बाहु कावूरुपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यः कृतः ऊरु तदस्य यद्वैश्यः पद्भ्यागुम् शूद्र अजायत चन्द्रमावरसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदनीयदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानस्तजन्ते यत्र पूर्वे साध्या सन्ति देवाः अभ्यः सम्भूत पृथिव्यै रसा च विश्वकर्मणः समवर्ततादि तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय ప్రజాపతిశ్చరతి గర్భే అంతః అజాయమానో బహుధా విజాయతే తస్య ధీరాః పరిజానంతి యోనిం మరీచీనాం పదమిచ్ఛంతి వేధసః యో దేవేభ్య ఆతపతి యో దేవానాం పురోహితః పూర్వో యో దేవేభ్యో జాతః నమో రుచాయ బ్రాహ్మయే రుచం బ్రాహ్మం జనయంతః దేవా అగ్రే తదబ్రువన్ యస్త్వైవం బ్రాహ్మణో విద్యాత్ తస్య దేవా అసన్వశే రేశ్చ తే లక్ష్మీశ్చ పత్యో అహోరాత్రే పార్శ్వే నక్షత్రాణి రూపం అశ్వినౌ వ్యాంతం ఇష్టం మనిషానా అముం మనిషానా సర్వం మనిషానా తచ్చయ్యోరావృణీమహే గాతుం యజ్ఞాయ గాతుం యజ్ఞపతయే దైవే స్వస్తిరస్తు నః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం దిగాతు భేషజం శరణో అస్తు ద్విపదే శరణ్ చతుష్పదే ఓం శాంతి శాంతి శాంతిః సమం సమిద్యువసే వృషన్నగ్నే విశ్వాన్యర్యా ఇళస్పదే సమిద్యసే సనో వసూన్యాభరా సంగచ్ఛధ్వం సంవదధ్వం సంభో మనాంసి జానతా దేవా భారం యథా పూర్వే సంజానానా ఉపాసతే సమానో మంత్రః సమితి సమానీ సమానం మనః సహ చిత్తమేషాం సమానం మంత్రమభిమంత్రయేవ సమానేన వో హవిషా జుహోమి సమానేవ ఆకూర్తిః సమానా హృదయానివః సమానమస్తు వో మనో యథా వత్సు సహాసతి ఓం శాంతి శాంతి శాంతిః ప్రాతరగ్రిం ప్రాతరింద్రగుం హవామహే
ప్రాతర్మిత్రావరుణా ప్రాతరశ్వినా
ప్రాతర్భగం పోషణం బ్రహ్మణస్పతిం ప్రాతః సోమముదరుద్రగుం భువేమ ప్రాతర్జితం భగముగ్రగుం భువేమ వయం పుత్రమదితేర్యోభిభర్తా ఆద్రశ్చిద్యం మన్యమానస్తురశ్చిద్రాజాచిద్యం భగం భక్ష్యేత్యాహ భగ ప్రణేతర్భగ సత్యరాధో భగే మాం ప్రియముదవదదన్నః భగ ప్రణోజనయగోభిరశ్వైర్భగ ప్రణృభిర్నృవంతస్యామ ఉదేదానీం భగవంతస్యామోత ప్రపిత్వౌతమజ్జే అన్నా ఉదోదిరామగవన్ సూర్యస్య వయం దేవానాగుం సుమతో శ్యామ భగగేవ భగవాగుమస్తు దేవాస్తేన వయం భగవంతస్యామ త ತಂ ತ್ವಾ ಭಗ ಸರ್ವ ಇಚ್ಛೋ ಹವೇಮಿ ಸನೋ ಭಗ ಪುರಯೇತಾ ಭವೇಹ ಸಮಧ್ವರಾಯೋಶಸೋ ನಮಂತತಧಿಕ್ರಾದೇವ ಶುಚಯೆ ಪದಾಯ ಅರ್ವಾಚೀನಂ ವಸುವಿದಂ ಭಗನ್ನೋ ರಥಮಿವಾಶ್ವಾಚಿನ ಆವಹಂತು ಅಶ್ವಾವತೀರ್ಗೋಮತೀರ್ನ ಉಷಾಸೋ ವೀರವತಿ ಸದಮುಚ್ಚಂತು ಭದ್ರಾಃ ಘೃತಂ ದುಹಾನಾ ವಿಶ್ವತಃಕೃತೇನ ಯೋಯಂ ಪಾತ ಸ್ವಸ್ತಿಭಿಃ ಸದಾ ನಃ ಯೋ ಮಾಗ್ನೇ ಭಾಗಿನಗುಂ ಸಂತಮತಾ ಭಾಗಂ ಸಿಕೇರುಷತೆ ಅಭಾಗಮಗ್ನೇತಂ ಕುರು ಮಾಮಗ್ನೇ ಭಾಗಿನಂ ಕುರು ಓಂ ಶಾಂತಿ 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 ಓಂ ಆಸತ್ಯೇನ ರಜಸಾವರ್ತಮಾನೋ ನಿವೇಶಯನ್ನ ಮೃದಂ ಮರ್ತ್ಯಂಚ ಹಿರಣ್ಯಗೇನ ಸವಿತಾರಥೇನ ದೇವೋ ಯಾತಿ ಭುವನ ವಿಪಶ್ಯನ್ ಅಗ್ನಿರ್ಭೂತಂ ವೃಣೀಮಹೇ ಭೂತಾರಂ ವಿಶ್ವವೇದಸಂ ಅಸ್ಯ ಯಜ್ಞಸ್ಯ ಸುಕ್ರತುಂ ಯೇಷಾಮೀಶೇ ಪಶುಪತಿ ಪಶೂನಾಂ ಚತುಷ್ಪದಾಮುತ ಚದ್ವಿಪದಾ ನಿಷ್ಕ್ರೀತೋಯಂ ಯಜ್ಞಿಯಂ ಭಾಗಮೇತುರಾಯ ಸ್ಪೋಷ ಯಜಮಾನಸ್ಯ ಸಂತೋ ಓಂ ಅಧಿದೇವತಾ ಪ್ರಚ್ಯಧಿದೇವತಾ ಸಹಿತಾಯ ಆದಿತ್ಯಾಯ ನಮಃ ಓಂ ಆಪ್ಯಾಯಸ್ವಸಮೇತು ತೇ ವಿಶ್ವತಃ ಸೋಮ ವೃಷ್ಣಿಯಂ ಭವಾವಾಜಸ್ಯ ಸಂಗತೇ ಅಪ್ಸು ಮೇ ಸೋಮೋ ಅಬ್ರವೀದಂತರ್ವಿಶ್ವಾನಿ ಭೇಷಜ ಅಗ್ನಿಂ ಚ ವಿಶ್ವಶಂಭುವಮಾಪಶ್ಚ ವಿಶ್ವಭೇಷಜೇ ಗೌರೀಮಾಯ ಸಲೀಲಾನಿ ತಕ್ಷತ್ಯೇಕಪದೇ ದ್ವಿಪದೇ ಸಾ ಚತುಷ್ಪದೇ ಅಷ್ಟಾಪದೇ ನವಪದೇ ಬಭೂವುಷಿ ಸಹಸ್ರಾಕ್ಷರಾ ಪರಮೇಭ್ಯೋ ಮನ್ಯ ಓಂ ಅಧಿದೇವತಾ ಪ್ರಚ್ಯಧಿದೇವತಾ ಸಹಿತಾಯ ಸೋಮಾಯ ನಮಃ ಓಂ ಅಗ್ನಿರ್ಮೂರ್ಧಾ ದಿವಕ್ಕಗುತ್ಪತಿ ಪೃಥಿವ್ಯಾ ಅಯಂ ಅಪಾಗುಂ ರೇತಾಗುಂಸಿ ಜಿನ್ವತಿ ಸ್ಯೋ ನ ಪೃಥಿವಿ ಭವಾ ನೃಕ್ಷರಾ ನಿವೇಶನೆ ಯಚ್ಛಾನಚರ್ಮ ಸಪ್ರಭಾಃ ಕ್ಷೇತ್ರಸ್ಯ ಪತಿನಾ ವಯಗುಂ ಹಿತೇನೇವ ಜಯಾಮಸಿ ಗಾಮಶ್ವಂ ಪೋಷಯಿತ್ರವಾಸನೋ ಮೃಡಾತೀದೃಶೇ ಓಂ ಅಧಿದೇವತಾ ಪ್ರಚ್ಯಧಿದೇವತಾ ಸಹಿತಾಯ ಅಂಗಾರಕಾಯ ನಮಃ ಓಂ ಉದ್ಭುಜಸ್ವಾಗ್ನೇ ಪ್ರತಿಜಾಗೃತ್ಯೇನ ವಿಷ್ಟಾ ಪೂರ್ತೇ ಸಗುಂ ಸೃಜೇ ಧಾಮಯಂ ಚ ಪುನಃ ಕೃಣ್ವಗ್ರಸ್ತ್ವಾ ಪಿತರಂ ಯುವಾನಮನ್ವಾತಾಗುಂಸಿ ತ್ವಯಿ ತಂತುಮೇತಂ ಇದಂ ವಿಷ್ಣುರ್ವಿಚಕ್ರಮೇತ್ರೇಧಾನಿ ತದೇ ಪದಂ ಸಮೂಢಮಸ್ಯ ಪಾಗುಂ ಸುರೇ ವಿಷ್ಣೋ ನರಾಟಮಸಿ ವಿಷ್ಣೋ ಪೃಷ್ಠಮಸಿ ವಿಷ್ಣೋಶ್ನಪ್ತ್ರೇ ಸೋ ವಿಷ್ಣೋ ಸ್ಯೂರಸಿ ವಿಷ್ಣೋ ಧೃ भूत्वा ॐ अधिदेवता प्रत्यधिदेवता सहिताय बुधाय नमः ॐ बृहस्पते अधियदर्यो अर्हाज्युमद्विभाति क्रतुमज्जनेषु यद्येदयच्च वदत्त प्रजात तदस्मा शुद्रविणम् देहि चित्रम् इन्द्रमरुत्व इह पाहि सोमम् यथाचार्याते अपि वसुतस्य तव प्रणीते तव शूरशर्मन्नाभिवासन्ति कवयस्सु यज्ञाः ब्रह्मयज्ञानम् प्रथमम् पुरस्ताद्विषेमतः सुरुचो वेणावः स बुद्ध्या उपमा अस्य विष्टा सतश्च यो निमसतश्च विवः ॐ अधिदेवता प्रत्यधिदेवता सहिताय बृहस्पतये नमः ॐ प्रवः शुक्राय भानवे भरद्वगुम् हव्यम् मतिम् चाज्ञये सुपूतम् यो दैव्यानि मानुषा जनो गुष्यन्तर्विश्वानि विद्मनाजिगाति इन्द्राणि मासुनारिषु सुपत्नि महमश्रवम् न क्यस्या अपरम् च न जलसामरते पतिः इन्द्रम् वो विश्वतस्परिहवामहे जनेभ्यः अस्माकमस्तु केवलः ॐ अधिदेवता प्रत्यधिदेवता सहिताय शुक्राय नमः ॐ शर्णो देवेरभीष्टयापो भवन्तु पीतये शय्योरभिस्रवन्तु नः प्रजापतेन त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यत्तामास्ते जुहुमस्तन्नो अस्तु वयग्रस्यामपतयोरगीया इमम् यः प्रस्थरमाहितीयाङ्गिरोभि पितृभिः संविधानः आत्मा मन्त्रा कविशस्तावहन्त्वेनाराजन् हविषामादयस्व ॐ अधिदेवता प्रत्यधिदेवता सहिताय शरीश्चराय नमः ॐ गयानश्चित्र आभुवधूते तथा वृधः सखा कयाशतिष्ठया वृता आयङ्गौ पृश्निरक्रमीदतनन्मातरम् पुनः पितरम् च प्रयन्सुवः यत्ते देवे निररुतिरा भवन्तदामग्रीवास्वविधत्यम् इदम् ते तद्दिश्याम्यायुषो न मध्या तदा जीव पितुमध्ये प्रमुक्तः ॐ अधिदेवता प्रत्यधिदेवता सहिताय राहवे नमः ॐ केतुम् कृण्वन्न केतवे पेशो मर्या अपेशसे शमुषद्भिरजायथा ब्रह्मा देवानाम् पदवे कवीनाम् ऋषिर्विप्राणाम् महिषो मृगाणाम् शेनो रुद्रा नागस्वधिर्वणा नागुम् सोमपवित्रमत्येतिरेभन् सचित्रचित्रम् चितयन् तमस्मि चित्रक्षत्रचित्रतमम् वयोधाम् చంద్రం రయిం పురువీరం బృహంతం చంద్ర చంద్రాభిర్గృణతే యువస్వ. ఓం అధిదేవత ప్రత్యధిదేవత సహితేభ్యః కేతుభ్యో నమః. ఓం ఆదిత్యాది నవగ్రహ దేవతాభ్యో నమో నమః. స్వస్తి ప్రజాభ్యః పరిపాలయంతాం న్యాయేన మార్గేణ మహీమహీషాః. గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం. సమస్తలోకాః సుఖినో భవంతు. సమస్తలోకాః సుఖినో భవంతు. సమస్తలోకాః సుఖినో భవంతు. ఓం శాంతి శాంతి శాంతి.